अच्छावद तव सङ्गेभिराभिस्तुहि पर्जन्यम् नमसावीवास कणिक्रदृढभो जीरदानूरेतो दधाच्योषाधीषु गर्भम् वृक्षान्हन्त्युदहन्ति रक्षसो विश्वम् विभाज भुवनम् महावदात् उदानागायीषते वृष्ण्यावतो यत्पर्जन्यस्तनजह्नन्ति दुष्कृताः रथीमकषजा स्वाङ्गभिक्षिपन्नाविर्दूतान् क्रीडुते वर्ष्या आह दूरात् सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्या अन्नभाः प्रवातावान्ति पतयन्ति विद्युदबुदोषाधीर्जिघते पिन्वते स्वाहा इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीम् रेतसावति यस्य व्रते पृथिवीरम् नामीति यस्य व्रते स भवज्जर्भूरीति यस्य व्रतमोषधीर्विश्वरूपाः सनः पर्जन्यमहि शर्म यच्छ दिवो नो वृष्टिम् मारुतो ररीध्वम् प्रबिम्बत वृष्णो अश्वस्य धाराः अर्वाहेतेन स्तन यज्ञने ह्यपोनिषञ्जन्न सूरः पितानाः अभिक्रन्दस्तन जगद्भवाधा उदन्वता परीदीयारथेन त्रिधिम् सुकर्षविषीतन्यञ्चम् समाभवन्तूर्ध्वतो निपादाः महान्तम् को समुद चालिषिञ्चस्यन्तन्ताम् तुल्या विषीदाः पुरस्तात् घृते नद्या वा पृथिवीव्युन्धि सुप्रपाणम् भवत्वग्भ्याभ्याः यत्पर्जन्यकनिक्रदस्तनजह्नंसि दुष्कृताः प्रतीदम् विश्वम् मोदते यत्किञ्च पृथिव्यामधि अवरुषीर्वर्णमुदुषुगृभाजा गर्धन् वाण्यत्येतवाहु अजीजनवोषधीर्भोजनाजगमुदप्रजाभ्यो विदो मनीषाम्